अध्वरेजवो भरतेन्द्राजसो ममामत्रेभिः सिञ्चता मध्यमन्दाः कामेः वीरः सदमस्य पीतिञ्जुहोत वृष्णे तदिदेशपष्टे अध्वरेजभोजो अपोवौरिवांसम् वृत्रम् जघानाशञ्जेव वृक्षम् तस्मा एतम् भरत तद्वशाजम् एष इन्द्रो अर्हति पीतिमस्य अध्वरेजभोजो दृभेकम् जघानजोगा उदाजदपहि बलम् वः तस्मा एतमन्तरिक्षेन वातमिन्द्रम् सोमैरोर्णतजोर्णवस्त्रैः अध्वरेजभोज उरडम् जघाननवचक्ष्वांसम् नवतिम् च बाहूर यो अर्बुदमवनी चापबाधेतमिन्द्रम् सोमस्य भृथेहि नोत अध्वरेजभोजस्वष्णम् दघानजश्वष्णमशुषञ्जोऽव्यम् सम् यः पिप्रन्नमुचिञ्जोरुधिग्राम् तस्मा इन्द्राजान्धसोजुहोत अध्वरेजभोजः शतम् शम्बरस्य पुरा बिभेदाश्मनेव पूर्वीः यो वर्तिनः शतमिन्द्रः सहस्रमपावपद्भरता सोममस्मै अध्वरेजभोजः शतमा सहस्रम् भूम्या उपस्थेव पज्जघन्वार कुत्सस्याजोरतिथिक्वस्य वीराञ्जावृणग्भरता सोममस्मै अध्वरेजभोजन्नरः कामजाद्वे सृष्टे वहन्तो न शथा तदिन्द्रे गभस्तिबोधम् भरत श्रुताजेन्द्राजसोमयी यज्ञभोजुहोत अध्वरेजवः कर्तना सृष्टिमस्मै वने निपोतम् वन उन्नयध्वम् जुषाडो हस्त्यमभिवावशेव इन्द्राजसोमम् मदिरञ्जुहोत अध्वरेजवः पयसोधर्यथा गोः सोमेभिरीम् वृणता भोजमिन्द्रम् वेदाहमस्य निभृतम् एतद्यत्सन्दम् भोजो यजतश्चिकेत अध्वरेजभोजो दिव्यस्य वस्वोजः पार्थिवस्य क्षम्यस्य राजा तमोर्दरन्न प्रणताय वेदेन्द्रम् सोमेभिस्तदपो वो अस्तु अस्मभ्यम् तद्वसो दानाजराधः समर्थयस्व बहुते वसव्यम् इन्द्रयच्चित्रम् श्रवस्या अनुद्योन्बृहत्वदेम विदधे सुवीराः